इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। तिलकवर्मायाः ऊनसप्ततिधावनाङ्कानां सहयोगेन भारतेन चिरप्रतिद्वन्द्वी पाकिस्तानदेशं पञ्चस्तोभैः पराजित्य नवमवारं दुबय्याः अन्ताराष्ट्रिय क्रीडांगणे एशिया चषक स्पर्धा विजिता। पाकिस्तान देशेन प्रदत्तस्य 47.1 धावनांकानां लक्ष्यस्य अनुसरणे भारतीय दलं त्रयाणां स्तोभानां हानौ केवलं 20 धावनांकेषु एव आसीत्। तदनन्तरं तिलक संजू सैमसन इत्येतयोः युगलेन भारतं सुस्थिरं कृतम्। इतः पूर्वं भारतेन पणकं विजित्य क्षेत्ररक्षणं निश्चितमासीत्। तत्रैव क्रीडायां प्रवृत्तेन पाकिस्तानदेशेन पञ्चकन्दुकानां शेषेषु 43.1 धावनांकाः समर्जिताः। क्रीडायाम् उत्तमप्रदर्शनानन्तरं तिलकवर्मा इत्येषः प्लेयर् आफ् द मैच इति घोषितः। राष्ट्रपतिः द्रौपदी मुर्मू वर्या दुबई नगरे एशिया चषक क्रिकेट प्रतियोगितायां विजयानन्तरं भारतीयदलम् अभिनन्दयत् तथा च भविष्ये तस्य सुस्थिरस्य वैभवस्य कामनाम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी एशिया कप क्रीडायाः भारत पाकिस्तान अन्तिमस्पर्धायाः तुलना सिन्दूराभियानेन सह अकरोत्। उक्तवान् यत् परिणामः समानः एव, भारतेन विजितम्। प्रधानमन्त्री नरेन्द्रमोदी वोकल फॉर लोकल इति मन्त्रस्य स्मरणं कुर्वन् आगामि उत्सवान् आलक्ष्य जनेभ्यः स्वदेशी उत्पादानां प्रयोगस्य आग्रहं कृतवान्। ह्यः आकाशवाण्याः मन की बात इति कार्यक्रमस्य 26.1 संस्करणे सः अवदत् यत् आगामिषु दिनेषु बहवः उत्सवाः सन्ति, अथ च GST इति वस्तुसेवाकर बचत महोत्सवः अपि प्रचलति। श्रीमोदी प्रोक्तवान् यत् स्वदेशीय उत्पादानां क्रयणं न केवलं परिवारेषु सुखम् आनयिष्यति अपितु शिल्पिनां परिश्रमस्य अपि सम्मानं भविष्यति।
आने वाले दिनों में एक के बाद एक त्योहार और खुशियां आने वाली है। हर पर्व पर हम खरीदारी भी खूब करते हैं और इस बार तो GST बचत उत्सव भी चल रहा है। अगर हम ठान ले कि इस बार त्योहार सिर्फ स्वदेशी चीजों से ही मनाएंगे तो देखिएगा हमारे उत्सव की रौनक कई गुना बढ़ जाएगी। वोकल फॉर लोकल को खरीदारी का मंत्र बना दीजिए, ठान लीजिए हमेशा के लिए जो देश में तैयार हुआ है वही खरीदेंगे।
आगामिनः अक्टूबर मासस्य द्वितीये दिनांके गांधी जयंती विषये प्रधानमंत्री उक्तवान् यत् महात्मा गांधी सर्वदा स्वदेशी खादी वस्तूनां स्वीकरणस्य विषये बोधयति स्म। सः अवदत् यत् विगत 11 वर्षेषु देशे खादी वस्तूनां प्रति आकर्षणं बहु वर्धितम्। श्रीमोदी देशवासिभ्यः आग्रहं कृतवान् यत् अक्टूबर मासस्य द्वितीये दिने खादी वस्तूनां क्रयणं अवश्यं कुर्वन्तु इति। केन्द्रीय गृहमन्त्री अमितशाहः अवदत् यत् अद्य पूर्वोत्तरं जम्मूकश्मीरं च विकासस्य शान्तेः च मार्गे प्रगतिं कुर्वन्तः सन्ति इति। सः नवदिल्ल्यां नक्सल मुक्त भारत एंडिंग रेड टेरर अंडर मोदीज लीडरशिप इति राष्ट्रीय शिखर सम्मेलनस्य समापन सत्रं संबोधयन् आसीत्। श्रीशाहः अवदत् यत् सर्वकारः संवादः सुरक्षा समन्वयः इति त्रिषु प्रमुखस्तम्भेषु कार्यम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी अद्य दीनदयाल उपाध्याय मार्गे नवदिल्ल्याः भाजपा कार्यालयस्य उद्घाटनं करिष्यति। उद्घाटनसमारोहः नवरात्रि उत्सवेन सह आचर्यते। दिल्ली भाजपेति दलस्य प्रमुखः वीरेन्द्र सचदेवः अवदत् यत् नूतनः कार्यालयः न केवलं कार्यस्थलम् अपितु मूल्यानां केन्द्रम् अस्ति इति वार्ताः।